इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। ह्यः युक्रेनदेशस्य कीवनगरे प्रधानमन्त्रिणा नरेन्द्रमोदिना युक्रेनदेशस्य राष्ट्रपतिना व्लोडिमिर जेलेंस्की इत्यनेन सह प्रतिनिधिस्तरीय सम्मेलनं कृतम्। उभयोः नेत्रयोः उपस्थितौ चतुर्ष् सहभागिता ज्ञापनपत्रेष् हस्ताक्षराणि आदानप्रदानानि च जातानि। युक्रेनदेशे सामुदायिक विकास परियोजना मादक द्रव्य नियन्त्रण मानक सांस्कृतिक इत्यादिषु विविध क्षेत्रेषु द्वैपाक्षिक सम्बन्धान् सुदृढं कर्तुं ज्ञापनपत्रेषु हस्ताक्षराणि कृतानि। प्रधानमन्त्री नरेन्द्रमोदी पोलैण्ड युक्रेन देशयोः द्विदिवसीय यात्रायाः द्वितीये अन्तिमे च चरणे ह्यः कीवनगरं प्राप्तवान्। अत्रावसरे प्रधानमन्त्री श्रीमोदी कीव इत्यत्र युक्रेनस्य राष्ट्रिय इतिहास संग्रहालये बालेभ्यः निर्मितानां मल्टीमीडिया मोटिरोलॉजिस्ट प्रदर्शनीम् अवलोकितवान्। तेन सह युक्रेनस्य राष्ट्रपतिः व्लोडिमिर जेलेंस्की इत्येषः आसीत्। प्रधानमन्त्री नरेन्द्रमोदी सबलं प्रतिपादितवान् यत् युक्रेन रूसयोः राष्ट्रद्वयोः मध्ये जायमानस्य संघर्षस्य समाधानार्थम् उपायाः अन्वेष्टितव्याः। सः आश्वासनं प्रदत्तवान् यत् भारतं शान्ति स्थापयितुम् आवश्यकेषु सर्वेषु प्रयासेषु सक्रिय भूमिकां निभालयितुं सज्जमस्ति। युक्रेन देशस्य राष्ट्रपतिना व्लोडिमिर जेलेंस्की इत्यनेन सह मिलित्वा श्रीमोदी अवदत् यत् भारतेन शान्ति प्रयासानां सक्रियरूपेण योजना कृता अस्ति तथा च अस्माकं दृष्टिकोणं जनकेन्द्रितम् अभवत्। सः अवदत् यत् भारतं सम्प्रभुतायाः क्षेत्रीय अखण्डतायाः च समर्थनं करोति। रूसदेशस्य सद्यः एव सम्पन्नायाः यात्रायाः विषये प्रवदन् प्रधानमन्त्री अवदत् यत् सः स्पष्टतया उक्तवान् यत् कस्यापि समस्यायाः समाधानं युद्धक्षेत्रे कदापि न लभ्यते, किन्तु समाधानं केवलं वार्ता संवाद कूटनीति माध्यमेन एव भवति। रक्षामन्त्री राजनाथसिंहः गतरात्रौ अमेरिकी रक्षासचिवेन लॉयड ऑस्टिन इत्यनेन सह द्विपक्षीयोपवेशनं वाशिंगटन नगरस्य पेंटागन नगरे कृतवान्। तेषु द्विपक्षीय रक्षा सहकार्यम् औद्योगिक सहकार्यम् क्षेत्रीय सुरक्षा इत्यादिषु अन्ताराष्ट्रिय विषयेषु व्यापक विमर्शः अभवत्। रक्षामन्त्री राजनाथसिंहः अवोचत् यत् भारतामेरिका देशौ स्वाभाविकौ सहयोगिनौ स्तः, अपि च द्वयोर्मध्ये सहभागित्वं सुनिश्चितम् अस्ति। अमेरिकादेशस्य आधिकारिक यात्रायाः प्रथमे दिने श्रीसिंहः वाशिंगटन नगरे भारतीय प्रवासिनः सम्बोधितवान्। असौ अत्रावसरे हर्षमपि अनुभूतवान् यतोहि तत्रस्थाः भारतीय समुदायाः निज सांस्कृतिक मूल्यैः सह योजिताः सन्ति, भारतीयार्थव्यवस्थायै विकासात्मक सम्भावनाः प्रकाशयन् श्रीसिंहः न्यगादीत् यत् भारतदेशः 27,000,000,000 वर्षं यावत् तृतीया बृहत्तमा अर्थव्यवस्था भवेदिति। रक्षानिर्यात प्रसंगेऽपि मन्त्रिणा निगदितं यत् रक्षानिर्यातेन साम्प्रतं 21,000,000,000,000 रूप्यकाणि अधिगतानि। राजनाथसिंहेन भारतामेरिकादेशयोः आपूर्ति व्यवस्थायाः सुरक्षापत्रेषु सम्पर्काधिकारिणां नियुक्ति सम्बन्धेऽपि एकं सहभागित्व ज्ञापनपत्रे हस्ताक्षरं कृतम्। केन्द्रीय गृहमन्त्री अमितशाहः गतरात्रौ छत्तीसगढस्य त्रिदिवसीय यात्रायाः कृते रायपुरं सम्प्राप्तवान्। सः अद्य नक्सलविरोधि अभियानेषु विभिन्नसभायाः अध्यक्षतां करिष्यति। श्रीशाहः अद्य प्रातः रायपुरमण्डलस्य चम्पारण नगरस्य महाप्रभु वल्लभाचार्यस्य आश्रमस्य भ्रमणम् अपि करिष्यति। पश्चात् सः छत्तीसगढस्य समीपस्थराज्यानां मुख्यसचिवानां आरक्षिमहानिदेशकानां च अन्ताराज्य समन्वय विषये आयोजितायाः सभायाः अध्यक्षतां करिष्यति।